इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य नवदिल्ल्यां नैकासां विकासात्मक परियोजनानां शिलान्यासम् उद्घाटनं च करिष्यति। असौ राष्ट्रिय राजधान्याः अशोक विहारे अनिर्मितेषु आश्रयेषु निवसद्भ्यः आर्थिकरूपेण वञ्चितजनेभ्यः भूयोऽपि 17,00,000 नवनिर्मितानि भवनानि समर्पयिष्यति। अपि च पात्र लाभार्थिभ्यः कुञ्जिकाः प्रदास्यति। एतेषां नव निर्मितानां भवनानां उद्घाटनेन सहैव दिल्ली विकास प्राधिकरणद्वारा विहिता पुनर्वास परियोजना पूरयिष्यति। अस्याः परियोजनायाः उद्देश्यं तत्रस्थानां निवासिनां कृते सुखसुविधाभिः पूरितम् उत्तमं स्वस्थं च जीवन पर्यावरण प्रदानमिति वर्तते। अपरत्र श्रीमोदी राजधान्यां द्वयोः नगरीय पुनर्विकास परियोजनयोरपि उद्घाटनं विधास्यति, ययोः नैरोजीनगरे विश्वव्यापार केन्द्रस्य अथ च सरोजिनीनगरे द्वितीयश्रेण्याः सामान्यावासीय आवासस्य उद्घाटनं सम्मिलितं विद्यते इति। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अद्य असम राज्ये विविधानां परियोजनानां उद्घाटनाय समर्पणाय हरितध्वज प्रदर्शनाय च गुवाहाटीं प्रति याति। अस्माकं वार्ताहरः सूचितवान् यत् अत्रावसरे असम राज्यस्य राज्यपालः एलपी आचार्यः, मुख्यमन्त्री हेमन्त विश्व शर्माः, अन्ये च केन्द्रीय मन्त्रिणः उपस्थिताः भविष्यन्ति। केन्द्रीयमन्त्री गुवाहाटीं सम्प्राप्य त्रिभ्यः रेलयानेभ्यः गुवाहाटी न्यू लखीमपुर जनशताब्दी एक्सप्रेस, न्यू बोंगाई गांव गुवाहाटी यात्री रेलयान, तिनसुकिया नाहरलागुन एक्सप्रेस इत्येतेभ्यः हरितध्वजं प्रदर्शयिष्यति। अथ च गुवाहाटीतः आकाशवाणी कोकराझार इत्यत्र 10 किलोवाट मितस्य एफएम ट्रान्समीटर इत्येतस्य आभासीय माध्यमेनापि उद्घाटनं करिष्यति। विदेश मन्त्रालयेन घोषितं यत् ह्यः 95 संख्यकाः भारतीय मत्स्यजीविनः बांग्लादेशस्य अधिकारिभिः भारतीय तटरक्षक बलाय समर्पयिष्यन्ते। उभयोः देशयोः तटरक्षकाधिकारिणां मध्ये पारस्परिका दान प्रदान रूपेण प्रत्यावर्तनाभियानस्य भागरूपेण च 90 संख्यकाः बांग्लादेशीयाः मत्स्यजीविनः अपि बन्धनरहिताः भविष्यन्ति इति सूच्यते। केन्द्रीय संचार मन्त्रालयेन समुद्घोषितं यत् माझा कुम्भमेलकस्य सज्जतायां दूरसंचार विभागेन प्रयागराजे मेलापकक्षेत्रे प्रमुखेषु सार्वजनिकस्थलेषु च निर्बाधतया संचार सौविध्यं सुनिश्चेतुं व्यापकी व्यवस्था समनुष्ठिता। दूरसंचार सेवा प्रदातृभ्यः दिग्निर्देश प्रदत्तः यत्ते विश्वस्य बृहत्तमे धार्मिकोत्सवे अपेक्षितानां उपस्थितानां जनानां प्रवाहस्य समायोजनार्थं उन्नत प्रौद्योगिकीनां संयोजनम् अथ च आन्तर्जालिक अनुकूलतां च सुनिश्चीकुर्वन्तु इति। भारतीय जनता पार्टीति दलेन गुरुवासरे निर्वाचन पदाधिकारिणः नियुक्ताः। देशस्य राज्येषु दलस्यास्य प्रदेशाध्यक्षान् राष्ट्रिय परिषद सदस्यान् च अभिलक्ष्य निर्वाचनं निर्धारितम् अस्ति इति सूच्यते। हॉकी इण्डिया लीग इत्येतस्यां प्रतिस्पर्धायां ह्यः रात्रौ ओडिशायाः राउरकेलायाः बिरसामुण्डा क्रीडांगणे यूपी रुद्राज इत्यनेन दलेन सूरमा हॉकी क्लब इत्येतद्दलं 3-0 इत्यांकान्तरालेन पराजितम्। देशस्य उत्तर भागे सघनकुञ्झटिकया दृश्यतायां न्यूनता दृश्यते। अनेन कारणेन नैकानि रेलयानानि प्रभावितानि सञ्जातानि इति वार्ताः।